अथ अष्टमः पाठः। भरतः पुनः पितुः पुरं गतः। तत्र भ्रातृकृते राज्यं बिभर्ति स्म। रामस्तु चित्रकूटमत्यजत्। दण्डकाख्यं च वनं जायया सहागच्छत्। तत्र वने बहून् विराधादीनसुरानहन्। एकदा तु शूर्पणखा नाम राक्षसी रामस्याश्रममागता। तानि वचांसि वीरमब्रवीत् मम भर्ता भवेति।